एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली गदति जनवेदनायाः सम्बोधनं कृत्वा सक्षम पारदर्शी प्रशासनस्य सञ्चालनस्य विषये सर्वकारस्य उच्च प्राथमिकतायां वर्तते। सिंहप्रासादे ह्यः सम्पन्ने राष्ट्रिय विकास समस्या समाधान समितेः त्रिपञ्चाशत्तमे उपवेशे प्रधानमन्त्री ओली विकासाय सुशासनम् अपरिहार्यमस्ति इत्यतः शासकीय सुधारस्य विषये समित्या विधातव्येषु निर्णयेषु कार्यसूच्याः प्रथमस्थाने स्थापितमिति समस्पष्टयत्। प्रधानमन्त्री ओली वन वातावरणस्य संरक्षणं कृत्वा अनेन क्षेत्रेण विकासस्य आयोजनायां सहजीकरणं विधातव्यम्, विकासे अवरोध सहजनत्वेन वन सम्बद्ध निकायेन कार्यं न विधेयं चेति अगदत्। अजरबैजान देशस्य बाकु नगरे सम्पन्ने जलवायु सम्बद्ध सम्मेलने वन मन्त्रालयेन आवश्यकतातः अधिकाः कर्मचारिणः प्रेषिता इति सन्दर्भं चर्चयन् प्रधानमन्त्री ओली एवम् अनुचित प्रवृत्तिं रुद्धुं मन्त्रिणां सचिवानां च ध्यानाकर्षणं व्यददात्। प्रधानमन्त्री ओली माध्यमिक शिक्षा परीक्षाया परिणामे सुधारम् आनेतुम् अनलाइन प्रणाल्या कक्षाया सञ्चालनस्य वैकल्पिक योजना आनेतुम् शिक्षा मन्त्रालयं निरदिशत। प्रधानमन्त्रिणः ओलिन अध्यक्षतायाम् उपविष्टे उपवेशे समग्र देशस्य आर्थिक परिसूचकांकानाम् अवस्थायाः वर्तमान योजनानां प्रगतेः समस्यायाः समाधानस्य उपायानां च विषयेषु विमृष्टम् आसीत्। उपवेशे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः, मन्त्रीगणः, प्रदेश सर्वकारस्य मुख्यमन्त्रिणः, प्रधानमन्त्रिणः मुख्य परामर्शदाता, नेपाल राष्ट्रकोषस्य अधिष्ठाता, नेपाल सर्वकारस्य मुख्य सचिवः, राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य पदाधिकारिणः, महालेखा परीक्षकः, संघ प्रादेशिक सर्वकाराणां सचिवाश्च सहभागिनः आसन्। नेपाले उत्पादितायाः विद्युतः ह्यस्तनदिवसात् बंगलादेशे निर्यातः प्रारब्धोऽस्ति। नेपालस्य ऊर्जोजलस्रोत सेचन मन्त्री दीपक खड्का, भारतस्य विद्युत मन्त्री मनोहरलाल, बंगलादेशस्य विद्युदूर्जा खनिज मन्त्रालयस्य परामर्शदाता मोहम्मद खाञ्च सांजालिक माध्यमेन संयुक्त रूपेण विद्युदुपकरणेन विद्युतः निर्यातस्य शुभारम्भं व्यदधुः। इतः पूर्वं नेपाल भारतयोर्मध्ये एव विद्युतः व्यापार जायमाना आसीत्। अतः परं नेपालस्य विद्युत तृतीय देशेऽपि विस्तारिता वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलः अजरबैजान देशस्य बाकु नगरे सम्पन्ने कोप 39 इत्याख्ये जलवायु परिवर्तन सम्बद्ध सम्मेलने भागं गृहीत्वा ह्य स्वदेशं प्रत्यागतोऽस्ति। सम्मेलने भागं गृहीत्वा स्वदेश प्रत्यागमन समये त्रिभुवनान्तर्राष्ट्रिय विमानस्थलस्य अतिविशिष्ट कक्षे उपराष्ट्रपतिना रामसाय प्रसाद यादवेन, प्रधानमन्त्रिणा केपी शर्मा ओलिना, सभामुखेन देवराज घिमिरे भिदेन, राष्ट्रिय सभाया अध्यक्षेण नारायण प्रसाद दाहालेन, उप प्रधानमन्त्रीभ्याम् मन्त्रिभिश्च राष्ट्रपतेः पौडेलस्य स्वागतं विहितम् आसीत्। तस्मिन् क्रमे नेपाली सेनायाः एकेन समूहेन सम्मानाभिवादनम् अर्पितम् आसीत्। अजरबैजान देशस्य बाकु नगरे सम्पन्नस्य कोप 39 इति सम्मेलनस्य मुख्य सत्रं गत मंगलवासरे सम्बोधयन् राष्ट्रपतिः पौडेलः हिमालयस्य सुरक्षा एव पृथिव्या सुरक्षा अस्ति इत्यत्र ध्यानं देयम् इत्यभाषत। तथैव कोप 39 सम्मेलनान्तर्गतमेव नेपालेन गत बुधवासरे पर्वतीय क्षेत्रे जलवायुजन्य हान्याः सम्बोधनम् इत्याख्यं विशेष सत्रम् आयोजितम् आसीत्। तत्र भागं ग्रहीतुं नेपाली प्रतिनिधिमण्डलस्य नेतृत्वं विदधान राष्ट्रपति पौडेला गत रविवासरे अजरबैजान देशं प्रस्थितः आसीत्। निर्वाचनायोगेन अस्यैव मार्गशीर्ष मासस्य 16 दिवसे आयोक्ष्यमाणस्य स्थानीय स्तरस्य उपनिर्वाचनस्य कृते निर्वाचनाधिकृतानां कार्यालयाः स्थापिताः वर्तन्ते। आराष्ट्रम द्वात्रिंशद मुख्य निर्वाचनाधिकृत कार्यालयाः षट् निर्वाचनाधिकृत कार्यालयाश्चेति संहत्य अष्टात्रिंशद निर्वाचन कार्यालयाः संस्थापिताः सन्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। स्वमार्गशीर्ष मासस्य द्वितीया दिवसात् पञ्चमं दिवसं यावत् मुख्य निर्वाचनाधिकृत कार्यालयेषु निर्वाचनाधिकृत कार्यालयेषु च निर्वाचन कार्यक्रमाः सञ्चालयिष्यन्ते इति आयोगस्य प्रवक्ता नीता पोखरेलः ज्ञापितवती। स्वमार्गशीर्ष मासस्य द्वितीय दिवसे प्रत्याशिनां नाम्नां पञ्जीकरणं भविष्यति। मार्गशीर्ष मासस्य पञ्चमे दिवसे प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनेन सहैव प्रत्याशिभ्यः निर्वाचन चिह्नानि प्रदास्यन्ते चेति निर्वाचनायोगेन ज्ञापितं वर्तते। दार्चुला जनपदे ह्य जीपयान दुर्घटनायां अष्टौ जनाः मृताः पञ्चजनाः आताश्च वर्तन्ते। दार्चुला जनपदस्य प्रहरी नायब उपरीक्षकस्य प्रकाश दाहालस्य अनुसारेण दुर्घटनायां दार्चुला जनपदस्य शैलशिखर नगरपालिकायाः पञ्चमवडा क्षेत्रस्य लेखग्रामस्य त्रिंशत् वर्षीय वीरेन्द्र रावलः तत्स्थानीया एव अष्टाविंशति वर्षीय शान्ति रावलः शैलशिखर नगरपालिकायाः नवमवडा क्षेत्रस्य नकतड ग्रामस्य पञ्चचत्वारिंशत् वर्षीय दिलीप विष्ट नवमवडा क्षेत्रस्य गोकुल ग्रामस्य पञ्चत्रिंशत् वर्षीय मीना लेखकः वैत जनपदस्य शिला डिला सैनिक ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य पञ्चदश वर्षीय संजीव बोहरा तस्यैव वडा क्षेत्रस्य वीरेन्द्र सिंह बोहरा भारतस्य उत्तर प्रदेशस्य बिजनौर जनपदस्य पञ्चचत्वारिंशत् वर्षीय मोहम्मद सफिर अष्टादश वर्षीय मोहम्मद वसीम च मृताः वर्तन्ते। आतानां धनगढ़ी स्थानस्य निसर्ग चिकित्सालये उपचारः जायमानो वर्तते। दार्चुला जनपदस्य मालिकार्जुन स्थाने मेलायां गतानां दर्शनार्थिनां जीपय दुर्घटितम् आसीत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा कथयति कांग्रेस दलस्य नेतृत्वे देशे प्रजातन्त्रम् स्थापितमस्ति चर्चयन् लोकतन्त्रस्य संघीयतायाश्च रक्षायै कांग्रेस दलस्य कार्यकर्तृभिः महत्वपूर्ण भूमिका निर्वहणीया चेति गदति। सभापतेः देवाभिधस्य प्रमुखातिथ्ये परह्यः डडेलधुरा जनपदीय नेपाली कांग्रेस दलस्य कार्यसमितेः उपवेशे सभापतिः देउवा कांग्रेस दलस्य संकल्पस्य यात्रायाः उद्देश्यस्य च अनुसारेण कार्यं विधातुं नेतृन् कार्यकर्तृन् च निरदिशत्। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह सर्वकारं सहजरूपेण अग्रे वर्धयितुं चस्तरीय संयन्त्रं निर्मितं वर्तते इति स्पष्टीकरोति। मोरङ जनपदीयेन प्रेस यूनियन संघेन विराटनगरे ह्य आयोजिते पत्रकार सम्मेलने मन्त्री सिंह सप्तसूत्रीय सहमते अनुसारेण संघटितस्य अस्य सर्वकारस्य कार्यम् अतिरिक्तं प्रभावकारी विधातुं संयन्त्रं निर्मितमस्ति इति स्पष्टम् अकरोत्। गृहमन्त्री रमेश लेखकः भाषते आसन्न स्थानीय स्तरस्य उपनिर्वाचनम् निष्पक्षे स्वतन्त्रे भयरहिते च वातावरणे सम्पादयितुम् आवश्यकी सुरक्षा व्यवस्था विहिता वर्तते। प्रतिनिधि सभायाः राज्य व्यवस्था सुशासन समिते ह्यस्तनोपवेशे गृहमन्त्री लेखक उपनिर्वाचनस्य कृते सर्वकारेण सुरक्षायाः आवश्यकी व्यवस्था विहितास्तीति समस्पष्टयत्। गृहमन्त्री लेखक शान्तिपूर्ण वातावरणे निर्वाचनम् सम्पादयितुम् निर्वाचन आयोगेन सहापि समन्वयम् विहितम् अस्तीति ज्ञापयन् निष्पक्षम् स्वतन्त्रतया च निर्वाचनम् सम्पादयितुम् सर्वकारः प्रतिबद्धोऽस्तीति अगदत्। नेकपा एमाले दलेन आगामिनः मार्गशीर्ष मासस्य सप्तमे दिवसे काष्ठमण्डपे जागरण सभा आयोक्ष्यते।